एयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै रूपैस्तुतैरपि विभासि यतस्त्वमेव तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा सन्दृश्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि नोपासिता मदमपास्य मया ममन्तस्य तीर्थानि चास्ति कदिया नहि सेवितानि देवार्चनं च विधिवन्न कृतं कदा तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणादहन्ति सञ्जीवनं च पपहस्तगतं सदैव तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि हृदयं परिकम्पते मे ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं जरा जननजं विविधाश्च रोगा काकश्वसूकरजनिर्निरये च पात त्वद्विस्मृते फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि नीचोऽपि पापवनितोऽपि विनिन्दितोऽपि ब्रूयात् वाहमिति यस्तु किलैकवारम् तं यच्छसीष निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम शङ्खपाणि तस्मात्त्वमेव शरणं मम शङ्खपाणि वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बकेवा सर्वत्र सर्वविधिना कथितस्त्वमेव मात्वमेव शरणं नमः शंखपाणि तस्मात्त्वमेव शरणं नमः शंखपाणि तस्मात्त्वमेव शरणं नमः शंखपाणि।